श्री गुरुभ्यो नमः वीताखिल विषयेच्छं जातानन्दाश्रपुलकमत्यच्छं सीतापतिदूताद्यं वातात्मजमद्यभावये हृद्यं तरुणारुणमुखकमलं करुणारसपूरपूरितापाङ्गं सञ्जीवनमाशासे मञ्जुळमहिमानम् अञ्जनाभाग्यम् शम्बरवैरिशरातिगमम्बुजदल विपुललोचनोदारम् कम्बुगलमनिलदिष्टम् बिम्बज्वलितोष्ठमेकमवलम्बे दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृशं दीनजनावनदीक्षं पवनतपः पाकपुञ्जमद्राक्षम् एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यं चिरमिह निखिलान् भोगान् भुक्त्वा श्रीरामभक्तिभाग्भवति।